नमस्सर्वेभ्यः. पुनः मङ्गलाचरणश्लोकपुरस्सरमेव आरम्भः स्यात्. ॐ गुणातीतोऽपि सः त्रिगुणसचिवस्त्रक्षरमय त्रिमूर्तिरिय सर्गस्थितिविलयकर्माणि तनुते कृपापारावारपरमगति एकस्त्रिजगतां नमस्तस्मै कस्मै चिदमितमहिम्ने पुरविदे. अस्तु, किञ्चिदिव तत्र गतवर्गे अस्माभिः यत्किमपि दृष्टं पठितं तत् किञ्चिदिव तत्र पुनर्स्मरणरूपेण वदामि, तदनन्तरम् अग्रेसरामः. तर्हि अस्माकं तत्र गतवर्गे आसीत् तत्र सप्त इति पदस्य को वा अर्थः इत्यस्मिन् विषये विशेषरूपेण तत्र निरूपणं कृतम्. सप्तपदस्य नाम तत्र द्रव्यगुणकर्म सामान्यविशेषसमवाय अभावाः सप्तपदार्थाः इति, वाक्यघटितसप्तपदस्य को वा अर्थः इति, तत्र प्रथमम् अधिकसङ्ख्याव्यवच्छेदः एव तस्य अर्थः इति उक्तम्. पुनः तत्र द्वेधा विकल्प्य प्रमितो वा अप्रमितो वा इति द्वौ अपि न भवतः इति तत्र व्यवच्छेदस्य निषेधः कृतः, नाम तत्र सप्त इति पदस्य व्यवच्छेदः अर्थः भवितुं नार्हति इति उक्तं. तदनन्तरं पुनः तत्र सिद्धान्ति नाम वदति, भोः तत्र व्यवच्छेदः नाम व्यवच्छेदः अर्थः नास्ति, किञ्चिदेव भिन्नः एव अर्थः. कः अर्थः इत्युक्ते सप्तत्वं नाम सप्तत्वस्य कः अर्थः इत्युक्ते पदार्थत्वं द्रव्यादिसप्त अन्यतमत्वव्याप्यम् इत्येव तत्र व्यवच्छेदः, व्यवच्छेद इति पदस्य तदेव अर्थः, सप्त इति पदस्य तदेव अर्थः. सप्त इत्यनेन व्यवच्छेदः अर्थः आगतः इति ग्रन्थकारस्य आशयः आसीत्. तस्य को वा अर्थः पुनः इत्युक्ते पदार्थत्वं द्रव्यादिसप्त, द्रव्यादिसप्त अन्यतमत्वव्याप्यमेव सप्तत्वम् इति अर्थः आसीत्. पुनः द्रव्यादिसप्त अन्यतमत्वव्याप्यम् इति सप्तत्वम् इति उक्तं, परन्तु तत्र समस्या अस्ति, सप्त अन्यतमत्वम् एव अप्रसिद्धं. कुतः इति चेत् सप्त अन्यतमत्वविशिष्टं भिन्नं वस्तु नास्त्येव, सप्त एव पदार्थाः सन्ति इति कथनात् किं लभ्यते इत्युक्ते सप्तभिन्न नाम सप्तभेदविशिष्ट अन्यत् वस्तु एव नास्ति, तर्हि सप्त अन्यतमत्वम् एव अप्रसिद्धं, तर्हि कथं सप्त अन्यतमत्वघटितवाक्यनिरूपणं कर्तुं शक्यते इति पूर्वपक्षिणः आशयः आसीत्. तर्हि पुनः तत्र सिद्धान्ति किं वदति इत्युक्ते भोः सप्त अन्यतमत्वं नाम तत्र द्रव्यादिभेदसप्तक अभाववत्वं, नाम तत्र सप्त अन्यतमत्वं नाम सप्तभेदविशिष्टवस्तु नास्ति, सप्तभेदविशिष्ट इति कथनात् अष्टम नवम दशम किमपि भवेत्, परन्तु तादृशः अभिप्रायः नास्ति. सप्तादि द्रव्यादिसप्त अन्यतमत्वम् इत्यस्य सप्तभेदविशिष्टवस्तु इति आशयः नास्ति. आशयः कः इत्युक्ते द्रव्यादिभेदसप्तक अभाववत्वम् इत्येव आशयः. तर्हि सप्तत्वसङ्ख्या सप्तग्रहणात् कः अर्थः लभ्यते, तत् निष्कृष्टार्थः पर्यवसितः अर्थः इत्युक्ते द्रव्यादिभेदसप्तक अभाववत्वम् एव तस्य सप्तत्वस्य अर्थः इति उक्तम्. अस्तु, इदानीं पुनः तत्र अग्रे अस्माभिः दृष्टं तत्र द्रव्यविभागः, तत्र द्रव्याणि पृथिव्यत्तेजो वायु आकाशकालदिगात्म मनांसि, तदपि दृष्टं. तत्र पुनः दशमो नाम तत्र नवद्रव्याणि इति उक्तम्, नवद्रव्याणि इति सिद्धान्तपक्षः, परन्तु मीमांसकः सङ्कते भो दशमं द्रव्यम् अस्ति, दशमं द्रव्यम् अस्ति, अत्र उपपत्तिमपि पश्यामः कथम् अस्ति इति निरूपणं सम्यक् कुर्मः इति वदति तत्र पूर्वपक्षी. तर्हि दशमद्रव्यस्य सत्त्वात् कथं नवैव द्रव्याणि इति वदति भवान् इति पूर्वपक्षी वदति. तस्य तत्र किं प्रमाणं नाम दशमद्रव्यस्य सत्त्वे किं प्रमाणम् इति पृष्टे सति सः वदति, तत्र अस्माकं प्रतीतिः एव प्रमाणं, नाम नैयायिकानामपि अभिमतमेव वर्तते. नैयायिकाः तत्र किं वदन्ति इत्युक्ते प्रतीतिव्यवहाराभ्याम् अर्थसिद्धिः इति वदन्ति, नाम यत्किमपि वस्तु प्रतीतम् अस्ति चेत्, प्रतीतिविषयतां गतम् अस्ति चेत्, तद् वस्तु बाह्यजगति भवेदेव इति नैयायिकानां भवति नाम तत्र अबाधितप्रतीतिः भवति चेत् नाम यथार्थज्ञानं यस्य कस्यचित् वस्तुनः भवति चेत् तद् वस्तु बहिः बाह्यसंसारे भवेदेव इति नैयायिकानां चिन्तनं प्रतीतिव्यवहाराभ्याम् अर्थसिद्धिः इति नियमः तेषां तर्हि अत्र प्रतीतिः अस्ति तमः खलु चलं नीलं परापरविभागवत् प्रसिद्धधर्मवैदर्भ्यां नवभ्यो भेत्तुम् अर्हति अत्र किरणावलिग्रन्थे एव उक्तं तदा पूर्वं तत्र श्लोकवार्तिकग्रन्थे अस्ति वा इति किञ्चिदिव अस्माकं चिन्तनमासीत् परन्तु अत्र किरणावली व्याख्याने उक्तमस्ति लीलावती ग्रन्थात् उद्धृतः एषः श्लोकः तमः खलु लीलावती नाम तत्र इदानीं न स्मर्यते परन्तु तत्र श्लोकवार्तिकग्रन्थात् नास्ति भवतु नाम तर्हि तमः खलु चलं नीलं परापरविभागवात् अस्माकं प्रतीतिः कीदृशी अस्ति इत्युक्ते तमः अस्ति तमः चलम् अस्ति नाम तमः चलति तत्र क्रियान्वयित्वम् अस्ति क्रिया अस्ति तमसि अन्यच्च नीलत्वम् अपि अस्ति तमः नीलम् इति प्रतीतिः अस्माकं भवति तर्हि गुणाश्रयत्वप्रतीतिः भवति गुणाश्रयत्वम् अस्ति तमसि क्रियाश्रयत्वम् अस्ति तमसि चलं चलति इति कथनात् किं लभ्यते इत्युक्ते तमसि क्रियान्वयत्वम् अस्ति नीलम् इति कथनात् इति प्रतीतिवशात् किं लभ्यते इत्युक्ते नीलाश्रयत्वमपि तमसि अस्ति तत्र परः तमः परं तमः अपरं तमः इत्यादि प्रतीतिः अपि अस्ति इति कृत्वा तत्र द्रव्यं तमः इति सिद्धं भवति तर्हि तस्य श्लोकस्य पूर्वार्धेन किं सिद्ध्यति इत्युक्ते द्रव्यं तमः इति सिद्ध्यति उत्तरार्धेन किं सिद्ध्यति इत्युक्ते तत्र प्रसिद्धनवद्रव्येषु अनन्तर्भावात् प्रसिद्धनवद्रव्येषु तमसः अन्तर्भावः न भवति इति कृत्वा भिन्नद्रव्यं भिन्नं द्रव्यं दशमं द्रव्यं तमः इति तत्र आयाति मध्ये कोऽपि आगतो वा
आं महोदय लक्ष्मी अस्मि अत्र नमस्कारः
नमस्कारः अस्तु तर्हि इदानीं तत्र तदेव पुनः निरूपयति नीलं तमश्चलति इति अबाधितप्रतीतिबलात् अत्र ग्रन्थ तत्र नवमे पुटे पश्यतु दीपिकाग्रन्थस्य तत्र अन्तिमपरिच्छेदः तत्र तत्र अन्तिमपङ्क्ति एव नाम उपान्त अन्त न उपान्तपङ्क्ति नीलं तमश्चलति इत्यबाधितप्रतीतिबलान् नीलरूपाधारतया क्रियाधारतया च द्रव्यत्वं तावत् सिद्धं तदेव उक्तं तत्र तमसो नाखस इदानीं किमर्थं तथा वदति नाम प्रसिद्धद्रव्यवैधर्म्यं द्रव्यो भेत्तुमर्हति इति उक्तं तदेव विशदयति अत्र तदेव तत्र स्पष्टं करोति कथं भिद्यते तत्र नवभ्यो द्रव्येभ्यो तमः कथं भिद्यते इत्यस्य एव अत्र विशदं व्याख्यानं करोति तत्र तमसो इदानीं तत्र तमसो न आकाशादिपञ्चके अन्तर्भावो रूपवत्वात् तर्हि आकाशादिपञ्चकं नाम किम् इत्युक्ते तत्र आकाश काल दिग् आत्मा मनांसि इत्र उक्तं खलु तत्र द्रव्यविभागे तर्हि पृथिवी पृथ्वी अप्तेजो वायु आकाश आकाशादारभ्य तर्हि आकाश काल दिक् आत्मा मनः इति पञ्चकं तत्र अन्तर्भावः न भवति नाम तमसः तेभ्यः भिन्नः तमः तेभ्यः भिन्नम् इति वदति कुतः इति चेत् तत्र तमसि रूपवत्त्वम् अस्ति नीलरूपवत्त्वं तमसि अस्ति परन्तु रूपवत्त्वम् आकाशे नास्ति नाम आकाशरूपाश्रयः न रूपम् आकाशे न भवति दिशि अपि न भवति काले अपि न भवति रूपम् आत्मनि अपि रूपं न भवति मनसि अपि रूपं न भवति तर्हि तत्र आकाशे कदाचित् तत्र नीलिमा प्रतीतिः आकाशे भवति तत् भ्रान्तिरेव इति वदति आकाशस्य तत् रूपं नास्ति, तत् भिन्नमेव. तत्र आकाशादिपञ्चके अन्तर्भावो नास्ति रूपवत्वात्. कुतः इति चेत् तमसि रूपम् अस्ति, तत्र रूपाभावः. पञ्चके रूपाभावः, आकाशे रूपाभावः, काले रूपाभावः, दिशि रूपाभावः, आत्मनि रूपाभावः, मनसि रूपाभावः, तत्र रूपाभावः, अत्र रूपसत्त्वं, तर्हि वैधर्म्यं तदेव तत्र, विषमधर्मः एव. तत्र समानधर्मः नास्ति, तत्र अभावः, अत्र सत्त्वं. तत्र रूपाभावः, तमसि रूपसत्त्वम्. अतः तमः आकाशादिपञ्चके न अन्तर्भवति इति अर्थः. अत एव न वायु स्पर्शाभावात् सदा गतिमत्वाभावात् सः. पुनः इदानीम् आकाशादिपञ्चके नास्ति, इदानीं प्रश्न उदेति वायो अन्तर्भावः अस्ति वा तस्य इति प्रश्नः. तर्हि वदति वायो अपि न अन्तर्भावः. कुतः इति चेत् तत्र वायुः स्पर्शवान् भवति. स्पर्शवत्वं वायोर्लक्षणं नाम तत्र स्पर्शः वायो अस्ति, परन्तु तमसि स्पर्शः नास्ति. अस्माकं प्रतीतिः कदाचित् भवति वा, अत्र तमः अस्ति स्पर्शवत् तमः इति प्रतीतिः अस्माकं नास्ति. तर्हि स्पर्शः तमसि न भवति, तर्हि स्पर्श तत्र किं तत्र कथं चिन्तनीयम् इत्युक्ते तमः न वायुः. एवं न वायु इत्र अन्तर्भावः इति तत्र सप्तम्यन्तं पदं, परन्तु आशयः कः इत्युक्ते तमः न वायुः. एवं चिन्तनीयं तमः न वायुः. तमः न वायुः इति समानाधिकरणप्रयोगः. समानाधिकरणप्रयोगस्य सर्वदापि भेद एव व्यज्यते, नाम सर्वत्रापि भेद एव तस्य अर्थः भवति. वायु प्रथमान्तपदं, तमः प्रथमान्तपदं, तर्हि समानाधिकरणप्रयोगः. तर्हि तमः न वायुः इति कथनात् तत्र अन्योन्याभावः. तमः वायु भेदवान् इति अर्थः. वायौ न अन्तर्भवति इत्यस्य कथनस्य को वा आशयः इत्युक्ते तमः न वायुः नाम वायुभेदवान् तमः इति अर्थः. कुतः इति चेत् तत्र स्पर्शाभावात् नामि स्पर्शः वायौ नास्ति, परन्तु नाम तत्र वायौ स्पर्शः अस्ति, तमसि स्पर्श अभावः. तर्हि तत्रापि वैधर्म्यं, समानधर्मौ न स्तः.
क्षम्यतां, प्रश्नः तत्र वायोः लक्षणवाक्यम् अस्ति रूपरहितत्वे सति स्पर्शवान् इति खलु. तर्हि रूपरहितत्वं वायौ अपि अस्ति इति कृत्वा तेन एव निषिद्धं कर्तुं शक्नुमः खलु?
तदपि कर्तुं शक्यते. तत्र कुतः इति चेत् तत्र मुख्यरूपेण तत्र केवलं वायोः रूपरहितत्वम् एव न, रूपरहितत्व स्पर्शवान् वायुः नाम तत्र स्पर्शमुख्यरूपेण चिन्तितं. रूपरहितत्वं स्पर्शे विशेषणम् अस्ति तत्र. तर्हि परन्तु तथापि कर्तुं शक्यते भगिनि, तथापि मम चिन्तनमस्ति तदपि कर्तुं शक्यते एव. कुतः इति चेत् वायुरूपं नास्ति, तमसि रूपम् अस्ति इति कृत्वा तथापि वैधर्म्यं. परन्तु अत्र तथा न कृतं. किमर्थं न कृतं तत् चिन्तनीयं. परन्तु तत्रापि द्विवारं वदति, न केवलं स्पर्शाभावात्, पुनः वदति सदा गतिमत्वाभावात् च. वायौ एव द्विवारम् उक्तं. स्पर्शाभावात् इत्युक्ते स्पर्शः तत्र केवलं वायौ न भवति, अन्यत्रापि भवति. विषमव्याप्तः गुणः स्पर्शः इति कृत्वा समव्याप्तगुणम् आदाय पुनः वदति सदा गतिमत्वाभावात्. तत्तद् अवगतं वा? तत्र स्पर्शः वायौ केवलं वायौ नास्ति, स्पर्शः अन्यत्रापि अस्ति. यथा तत्र तेजसि स्पर्शः अस्ति. तेजसि कीदृशः स्पर्शः अस्ति?
उष्णस्पर्शः.
उष्णस्पर्शः तेजसि. जले कीदृशः स्पर्शः अस्ति?
शीतस्पर्शः.
शीतस्पर्शः. वायौ अनुष्णाशीतस्पर्शः. तर्हि तत्र स्पर्श केवलं कथनात् किं भवति इत्युक्ते तत्र स्पर्शः न केवलं वायौ, अन्यत्रापि अस्ति इति कृत्वा इदानीं केवलं वायौ एव यः गुणः वर्तते तम् आदाय, तं गुणम् आदाय अपि इदानीं वदति सदा गतिमत्व अभावात्. सदा गतिमत्वं केवलं वायौ एव वर्तते. तर्हि सदा गतिमत्वं तत्र यत्र यत्र वायुः तत्र तत्र सदागतिं नाम सदागतिमत्व आश्रय एव वायुः इति कृत्वा तत्र द्विवारम् उक्तम्. अस्तु, इदानीं पुनः वदति नापि तेजसि. भास्वररूपाभावात् उष्णस्पर्श इदानीमपि द्विवारं भवति, अत्र तेजसि अपि अन्तर् न भवति, इदानीं भास्वररूपाभावात् उष्णस्पर्शाभावात् च तत्र तेजसि किं भवति इत्युक्ते भास्वरशुक्लरूपं तेजसि इति उक्तं। तर्हि भास्वरशुक्लरूपम् इत्युक्ते किं, भास्वररूपम् इत्युक्ते किं, कोऽपि वदति वा? भास्वरं नाम परप्रकाशकत्वम् एव भास्वरत्वं, परप्रकाशकत्वम्।
एकः प्रश्नः, ग्रन्थकारः तत्र एतत् सर्वं शून्य इति इति प्रकटयति वा? सर्वं शून्यमेव, एतत् किमपि नास्ति नास्ति चेत् किमपि आकाशात् रूपः नास्ति, एतत् सर्वं नास्ति नास्ति, एतत् भिन्नम् भिन्नमपि ग्रन्थकारः उक्तवान् तत्र, एतत् सर्वं शून्यम् इति प्रकटितवान् वा तत्र?
न न, तथा तत्र तत्र किमस्ति इत्युक्ते अनुमानस्य कश्चन प्रकारः, नाम तत्र साधनस्य कश्चन प्रकारः किं भवति इत्युक्ते प्रसिद्ध, अत्र अनन्तरं तत्र सम्यक् स्पष्टं भवेत्, नाम प्रसिद्धेषु नवसु द्रव्येषु अन्तर्भावः नास्ति, कुतः नास्ति इति चेत् तत्र नवद्रव्येषु ये गुणाः सन्ति ते गुणाः तमसि नास्ति, गुणाः न तमसि न सन्ति इति कृत्वा तमः द्रव्यं, परन्तु तत्र नवद्रव्येषु ते तमसः अन्तर्भावः नास्ति इति कृत्वा तत्र परिशेषपरि अनुमानं नाम तत्र परिशेषप्रमाणमेव इति वक्तुं शक्यते, तत्र दशमद्रव्यत्वं स्थापयति, नाम शून्यम् इति तस्य आशयः नास्ति, न किमपि अस्ति इति आशयः न, परन्तु तत्र वैधर्म्यकथनेन वैधर्मस्य विशदीकरणेन किं वदति इत्युक्ते तेषु न अन्तर्भवति इत्यर्थमेव तत्र नास्ति नास्ति इति वदति।
एतत् सर्वम् इदानीं पूर्वपक्षी वदति खलु?
एतत् सर्वं पूर्वपक्षी वदति, सत्यमेव, सत्यं। तर्हि नापि तेजसि, तेजसि अपि अन्तर्न भवति, किमर्थम् इत्युक्ते भास्वररूपम् अस्ति तेजसि, परन्तु भास्वररूपं तमसि नास्ति, तमसि तत्र नीलत्वं कृष्णत्वं समानमेव, तद् यत् रूपम् अस्ति तद् रूपं परप्रकाशकं नास्ति, तद् अङ्ग अन्धकार एव, तर्हि परप्रकाशकरूपं नास्ति, भास्वररूपं नास्ति, पुनः तमसि उष्णस्पर्शः अपि नास्ति, तेजसि तु उष्णस्पर्शः भवति, तर्हि उष्णस्पर्श अभाववान् अस्ति चेत् कथं तेजः भवेत्, तर्हि तमः अपि तेजो न इति, पुनः समानाधिकरणप्रयोगः, तमः तेजो न कुतः इति चेत् भास्वरशुक्लरूप अभावात् उष्णस्पर्श अभावात्, पुनः तदनन्तरं नापि जले, जलमपि तमः जलं न, पुनः तमः जलं न कुतः इति चेत् तत्र शीतस्पर्श अभावान् नाम शीतस्पर्शोऽपि नास्ति, शीतस्पर्श जले अस्ति, परन्तु जले शीतस्पर्श यदि तमः जलं स्यात्, यदि तमः जलं स्यात् तर्हि शीतस्पर्शोऽपि स्यात् तमसि, परन्तु तथा नास्ति, सर्वत्र एवमेव चिन्तनं करणीयं, यदि तमः जलं स्यात् तर्हि शीतस्पर्शोऽपि स्यात् तत्र, परन्तु शीतस्पर्शवत्वं नास्ति इति कृत्वा तमः जलं न, तथा सर्वत्रापि तत् तथैव चिन्तनं करणीयं, शीतस्पर्शभावान् नीलरूप आश्रयत्वात् च, पुनः अत्र नीलरूप आश्रयत्वं तमसि अस्ति, परन्तु नीलरूप आश्रयत्वं जले नास्ति, जलस्य रूपं कीदृशं कोऽपि वदति वा? जलस्य
रूपं
सत्यं सत्यम् अभास्वरशुक्लरूपम्, अभास्वरत्वं पुनः पर अप्रकाशकत्वमेव अभास्वरम् अस्तु, तर्हि शीतस्पर्शाभावान् तत्र तमसि शीतस्पर्श अभा शीतस्पर्शः नास्ति, नीलरूपाश्रयत्वात् च नीलरूप आश्रयत्वं तमसि, अभास्वरशुक्लरूप आश्रयत्वं जले, तर्हि वैधर्म्यम् नाम समानधर्मः नास्ति तत्र। पुनः वदति पृथिव्यां गन्धवत्वाभावात् स्पर्शरहितत्वात् पुनः पृथिव्यामपि न भवति कदापि तत्र तमः गन्धवत्तमः इति अस्माकं प्रतीतिः कदापि नास्ति तर्हि गन्धवत्वं तमसि नास्ति परन्तु पृथिव्यां तु गन्धवत्वम् अस्ति यदि तमः पृथिवी स्यात् तर्हि तमसि गन्धवत्वम् अपि स्यात् परन्तु तथा नास्ति इति कृत्वा पृथिव्यामपि न अन्तर्भवति पुनः स्पर्शरहित्वात् पुनः तत्र स्पर्शः एव वायौ अपि स्पर्शः अत्र तत्र तेजसि अपि स्पर्शः पृथिव्यामपि स्पर्शः तर्हि स्पर्शरहितत्वम् अस्ति तमसि स्पर्शवत्वम् अपि पृथिव्यां यदि तमः पृथिवी स्यात् तर्हि तमसि स्पर्शवत्वं स्यात् परन्तु स्पर्शस्य अभावः अस्ति इति कृत्वा तमः पृथिव्यामपि न अन्तर्न भवति तर्हि तस्मात् इदानीं किम् उक्तं तर्हि कुत्रापि नास्ति इति उक्तं नाम तत्र आकाशादि पञ्चकेऽपि नान्तर्भवति तमः न वायुः तमः न तेजः तमः न पृथिवी तमः न किमपि तत्र नाम प्रसिद्धेषु द्रव्येषु नवसु तमसः अन्तर्भावो नास्ति इति इदानीमेव दृष्टं तत्र कदाचित् ग्रन्थेषु प्रसिद्ध इति पदस्य स्थाने क्लिप्त इति पदस्य प्रयोगः भवति क्लिप्तद्रव्येषु कदाचित् तत्र अनेक अवगमनं जायते क्लिप्तद्रव्येषु नाम प्रसिद्धद्रव्येषु स्वीकृतेषु द्रव्येषु इति अर्थः क्लिप्तद्रव्येषु तत्र न भवति इति कृत्वा इदानीं परन्तु द्रव्यं तु अस्ति खलु द्रव्यम् अस्ति कथं तत्र वयं वक्तुं शक्नुमः इत्युक्ते पूर्वं श्लोकः आसीत् तमः खलु चलं नीलं परापरविभागवात् तत्र तमः चलति इति प्रतीतिः तु अस्ति खलु अन्यच्च तत्र नीलत्वमपि अस्ति खलु तर्हि तत्र गुणत्वाश्रयत्वा तत्र द्रव्यत्वमेव भवति खलु परन्तु नवद्रव्येषु अन्तर्न भवति इति कृत्वा पारिशेष्या किं भवति इत्युक्ते तत्र दशमद्रव्यत्वम् आयातं तस्य तर्हि तस्मात् तमोदशमद्रव्यम् इति चेत् तर्हि यदि पूर्वपक्षी वदति तस्मात् नवसु द्रव्येषु अनन्तर्भावात् तमसः नवसु द्रव्येषु अन्तर्भावः नास्ति इति कृत्वा दशमद्रव्यम् इति न वक्तव्यम् इति सिद्धान्ती वदति पूर्वपक्षी यदि तथा वदति चेत् किं वदति चेत् न तथा नास्ति भोः तर्हि किम् इत्युक्ते तर्हि कीदृशं नाम तमसः स्वरूपं कीदृशम् इत्युक्ते इदानीं वदति केवलं तमसः तेजोभावरूपत्वात् नाम तेजसः अभाव एव तमः इति इदानीं वदति तमः नाम तत्र द्रव्यं नास्ति तमसः अभावरूपः रूपत्वम् अस्ति नाम तमः नाम अभावः कस्य अभावः इदानीं घटः अस्ति घटाभावः पटः अस्ति पटाभावः तथैव इदानीं तमः कीदृशः इत्युक्ते तेजो अभावः तम अभावरूपत्वात् पुनः तदेव इदानीं किञ्चिदिव अनुमानप्रमाणमस्ति इदानीं पश्यामः तथा हि तमोहीन रूपी द्रव्यम् आलोकासहकृतचक्षुर्ग्राह्यत्वात् आलोकाभाववत् अत्र किञ्चिदिव अत्र विवरणं करणीयं भवति अहं किञ्चित् वदामि तदनन्तरं पुनः एकवारं पर्यायेण पश्यामः इदानीं किं वदति इत्युक्ते तथा हि इत्युक्ते पुनः तदेव यत्पूर्वम् उक्तं तदेव निरूपयति इति अर्थः तदा तथा इति पदद्वयस्य अर्थः कः इत्युक्ते पूर्वं यत् उक्तं तदेव दृढीकरोति तदेव पुनः निरूपयति विशदीकरोति इति अर्थः कथं करोति इत्युक्ते तमोहीनरूपी द्रव्यम् इदानीं किं वदति इत्युक्ते अनुमानप्रमाणमस्ति तमोहीनरूपी द्रव्यं नाम तमसि रूपी द्रव्यत्वं अस्ति वा न वा न नाम रूपी द्रव्यत्व अभावः इति तमोहीनरूपी द्रव्यम् आलोकासहकृतचक्षुर्ग्राह्यत्वात् आलोकाभाववत् अस्तु इदानीं किं वदति आलोकासहकृतचक्षुर्ग्राह्यत्वात् आलोक अभाववत् इदानीं किं वदति अत्र आलोकासहकृतचक्षुर्ग्राह्यत्वात् नाम अस्मिन् जगति यानि तत्र वस्तूनि सन्ति रूपी द्रव्याणि सन्ति रूपीद्रव्याणि वस्तूनि न यानि रूपीद्रव्याणि सन्ति घटो वा पटो वा पुष्पं वा किमपि रूपीद्रव्यं तेषां तत्र प्रत्यक्षज्ञानं तेषां प्रत्यक्षज्ञानं चक्षुषा भवति इति वयं जानीमः, चक्षुषा भवति इति वयं जानीमः, परन्तु न केवलं चक्षुषा, अन्यत् किमपि अपेक्षितं वर्तते तत्र, नाम आलोकसहकार, आलोकसंयोगोऽपि तत्र आवश्यकः। यदि आलोक तत्र घटः अस्ति अन्धकारे, तर्हि चक्षुर्ग्राह्यं ग्राह्यः न भवति, परन्तु यदि आलोकं तत्र पातयामः चेत्, प्रकाशम् आनयामः चेत् तत्र यदा प्रकाशस्य संयोगः भवति तदा एव तस्य चक्षुर्ग्राह्यत्वं वर्तते, नाम तदा एव सः घटः गृह्यते। तर्हि आलोकः तत्र आलोकस्य सहकारः, आलोकस्य संयोगः आवश्यकः। तर्हि चक्षुर् आलोकसहकृतचक्षु एव, यदि चक्षुः आलोकस्य सहकारं प्राप्नोति चेदेव तत्र घटस्य ग्रहणं करोति, रूपीद्रव्यस्य ग्रहणं करोति। परन्तु तमसः प्रत्यक्षं यदा भवति तदा आलोक तत्र चक्षुः आलोकसहकृतं वर्तते वा आलोक असहकृतं वर्तते, कोऽपि वदति वा? यदा वयम् अन्धकारे अत्र अन्धकारः अस्ति तमः अस्ति तदा वदामः, तदा अस्माकं चक्षुः भवति अन्धकारः भवति, तत्र आलोकस्य सहकार वर्तते वा? अस्माकं चक्षुः आलोकसहकृतः कृतं भवति वा?
नास्ति,
नास्ति। तर्हि आलोक असहकृतचक्षुर्ग्राह्यत्वम् अस्ति तमसि, आलोकसहकृतचक्षुर्ग्राह्यत्वं वर्तते रूपीद्रव्येषु, यत् रूपीद्रव्यं तत्तत् सर्वम् आलोकसहकृतचक्षुर्ग्राह्यम्, अथवा यत् न रूपीद्रव्यं तत्तत् आलोक असहकृतचक्षुर्ग्राह्यम्, नाम किञ्चित् भिन्नरूपेण वक्तव्यं, नाम तत्र मया किञ्चित् तत्र मम कथनं किञ्चित् विपर्यस्तमासीत्। तत्र किं भवति इत्युक्ते व्याप्यस्य कथनं पूर्वं व्यापकस्य ततः परम् इति नियमः। अस्माकं यदा व्याप्तेः कथनं भवति तदा सर्वत्र प्रथमं व्याप्यस्य कथनं भवेत्, व्याप्यस्य कथनं पूर्वं व्यापकस्य ततः परम्, एवं परीक्षिता व्याप्तिः स्फूतिः भवति तत्त्वतः इति कुमारीलभट्टाचार्यस्य तत्र वर्तते, कुमारीलभट्टस्य श्लोकवार्तिकग्रन्थे सः श्लोकः वर्तते। तर्हि प्रथमं यः हेतुः, यः व्याप्यः, तस्य कथनं पूर्वं, तर्हि कथं वक्तव्यम् इत्युक्ते यत् आलोक असहकृतचक्षुर्ग्राह्यं तत्तत् न रूपीद्रव्यम्, एवं वक्तव्यम्। एतत् स्पष्टमस्ति वा? यत् अत्र हेतु किं, हेतुः किम् इत्युक्ते आलोकासहकृतचक्षुर्ग्राह्यत्वं हेतुः, साध्यं किम् इत्युक्ते इत्युक्ते रूपीद्रव्यत्व अभावः, नाम न रूपीद्रव्यत्वम्, अरूपीद्रव्यत्वम् इति रूपीद्रव्यत्व अभावः। उदाहरणम् अत्र अस्ति आलोक अभाववत्, उदाहरणं किम् अस्ति? आलोकाभाववत्, यथा आलोक अभावः चक्षुसहकृत आलोकसहकृतचक्षुर्ग्राह्यः भवति वा? आलोक अभावः तत्र यदि तत्र आलोक अभावः नाम भवतु कोऽपि वस्तु, किमपि वस्तु, आलोक अभावः, आलोकः अस्ति वयं जानीमः, आलोकस्य अभावोऽपि भवति वयं जानीमः, तर्हि आलोकस्य अभावः कथं गृह्यते? चक्षुषा गृह्यते, आलोकस्य अभावोऽपि चक्षुषा गृह्यते। किमर्थं गृह्यते इत्युक्ते तत्र यद् वस्तु किमस्ति तत्र नियमः कश्चन वर्तते, इदानीं सम्यक् न स्मर्यते, यो वस्तु यत् येन इन्द्रियेण गृह्यते तेन।
आलोक इत्युक्ते किम्?
आलोक इत्युक्ते प्रकाशः एव चिन्तनं करणीयम्, प्रकाशः एव।
रूपीद्रव्यम् इत्युक्ते यस्मिन् द्रव्ये रूपं वर्तते इति खलु?
सत्यं, सत्यम्।
शब्दः न रूपीद्रव्यम् इति वक्तुं शक्यं महोदय?
शब्दः
शब्दं न रूपीद्रव्यम्,
न न न शब्दः शब्दः नाम गुणः द्रव्यं न.
ओ अस्तु आमां सत्यं.
तर्हि
जि तत्र चक्षु इन्द्रियं व्यापार इन्द्रियार्थ सन्निकर्षकव्यापारं कृत्वा तत्र कार्यं तु ज्ञानं भवति.
सत्यमेव तदेव
शत्रुः तत्र अस्ति खलु. शत्रुः व्यापारं तत्र ज्ञानमेव.
आमां सर्वत्रैव तत्र यदा प्रत्यक्षज्ञानं भवति तथा इन्द्रियार्थसन्निकर्षः सर्वदैव आवश्यकः. तदेव व्यापारः. सत्यमेव तत् सत्यम्. अत्र किमस्ति इत्युक्ते आलोक अभावत् किञ्चित् तत्र विशदीकर्तुम् इच्छामि. तत्र सम्यक् तत्र ज्ञानं जायते इति कृत्वा अत्र आलोक अभाववत् उदाहरणं तत्र इदानीं तत्र उदाहरण अनुमानवाक्यं किम् इत्युक्ते पर्वतो बन्निमान् धूमात् इति उक्तं यथा महानसम् इति. पर्वतो बन्निमान् धूमात् यथा महानसं पर्वतपक्षः अत्र तमः पक्षः बह्निसाध्यं तत्र पर्वतो बन्निमान् धूमात् अत्र अत्र साध्यं किम् इत्युक्ते रूपीद्रव्यत्व अभावः साध्यः. रूपीद्रव्यत्व अभावः एव तत्र तमसि वर्तते. रूपीद्रव्यत्वं नास्ति तमसि इति साध्यं. हेतुः कः इत्युक्ते आलोक असहकृतचक्षुर्ग्राह्यत्वं हेतुः. अत्र निदर्शनम् उदाहरणं किम् इत्युक्ते आलोक अभावः इति उदाहरणम्. आलोक अभावस्य ग्रहणं कथं जायते? आलोक अभावस्य ग्रहणं चक्षुः नाम आलोक अभावः आलोक सहकृतचक्षुर्ग्राह्यः भवति वा आलोक असहकृतचक्षुर्ग्राह्यो भवति वा? नाम सहकृत नाम आलोकस्य साहाय्यम् इति आलोकस्य संयोगः आलोकस्य
सत्त्वम् आम् महोदय आलोक
सत्यं सत्यमेव. आलोकः आलोक असहकृत कुतः इति चेत् आलोकः सहकृत भवति चेत् आलोक एव आलोक अभावः एव न भवति तत्. तर्हि आलो यथा उदाहरणे किम् अस्ति इत्युक्ते आलोक आलोक अभावः आलोक असहकृतचक्षुर्ग्राह्यः भवति आलोक अभावः रूपीद्रव्यमपि न भवति. आलोक तत्र आलोक अभावे रूपीद्रव्यत्वमपि न भवति इति अर्थः. तर्हि इदानीं तमः अपि तथैव नाम इदानीं व्याप्तिः का अत्र अस्मिन् स्थले कोऽपि वदति वा अत्र व्याप्तिः का को लक्ष्मी भगिनी वदति वा अत्र व्याप्तेः स्वरूपं कीदृशं वर्तते?
प्रयत्नं करोमि महोदय. व्याप्तिः अत्र व्याप्तिः रूपी द्रव्यं न इति व्याप्तिः
नाम तत् सत्यं रूपी तत् भवति व्यापकं रूपीद्रव्यत्वं व्यापकं नाम रूपीद्रव्यत्व अभावः व्यापकः
व्यापकः
आम्
व्याप्यः आलोक असहकृत चक्षुर्ग्राह्यत्वम् इति व्याप्यः.
सत्यं सत्यं यत्र यत्र आलोक असहकृत चक्षुर्ग्राह्यत्वं तत्र तत्र रूपीद्रव्यत्व अभावः एवं तादृशी व्याप्तिः. अतः उदाहरणं दत्तं तत्र आलोक अभाववत् यथा अस्ति तर्हि इदानीं तदेव इदानीं विशदीकरोति रूपीद्रव्यचाक्षुषक्रमायाम् आलोकस्य कारणत्वात् यत् अस्माभिः एतावत्पर्यन्तं यदुक्तं तदेव विशदीकरोति इदानीं रूपीद्रव्यचाक्षुषक्रमा क्रमा नाम नाम यथार्थज्ञानं रूपीद्रव्यचाक्षुष यथार्थज्ञाने आलोकस्य कारणत्वात् सर्वदैव आलोकम् आलोकः तत्र भवेदेव सर्वदैव प्रकाशः तत्र भवेदेव तदा एव रूपीद्रव्यस्य चाक्षुषप्रत्यक्षं जायते. अस्तु तर्हि रूपीद्रव्यत्वं नास्ति इति वदतु. रूपीद्रव्यं नास्ति तमः तस्मात् प्रौढप्रकाशकतेजः सामान्य अभावस्तमः. तर्हि इदानीं किम् आयातं ग्रन्थकारः किं वदति इत्युक्ते प्रौढप्रकाशकतेजः सामान्य अभावस्तमः. तत्र नीलं तमश्चलति इति प्रत्ययो भ्रमः अतो नवद्रव्याणि इति सिद्धम्. अस्तु, तर्हि तस्मात् प्रौढप्रकाशकतेजसामान्यभावस्तमः. इदानीं पूर्वम् उक्तमासीत् तमसः तेजो अभावरूपत्वात् इति उक्तवान्. नाम तमः नाम केवलं तेज अभावः, तेजसः अभावः एव तमः. इदानीं किञ्चिदिव परिष्कारपुरस्सरमेव वदति, तत्र परिष्करणीयं प्रौढप्रकाशकतेजः सामान्य अभावः तमः इति वदति. प्रौढप्रकाशकतेजसामान्य अभावः किमर्थं तथा वदति? इदानीं केवलं प्रकाशकतेजसामान्य अभावः वक्तव्यं खलु, किमर्थं प्रौढप्रकाशकतेजसामान्य अभावः तमः इति वदति? कोऽपि वक्तुं किमपि इच्छति वा, प्रयत्नं कर्तुम् इच्छति वा, प्रौढप्रकाशकतेजसामान्य अभावः किमर्थं वदति? प्रकाशकते नाम तेजसामान्य अभावः एव वक्तव्यं स्यात् खलु, वक्तव्यमस्ति. किमर्थं तत्र प्रकाशकतेजसामान्य अभावः उक्तः? इत्युक्ते कोऽपि वक्तुमिच्छति वा? अस्तु, तत्र किमर्थं तथा उक्तम् इत्युक्ते तत्र तेजः सामान्य अभावः तमः न भवति. कुतः तमः न भवति इत्युक्ते, तमः न भवति इत्युक्ते, इदानीं तत्र जलम् अस्ति, उष्णीकृतं जलं वर्तते, उष्णीकृतं जलं वर्तते तत्र, तत्र प्रकोष्ठे यत्र दीपादिकं नास्ति, तत्र ध्वनिः आयाति, तत्र म्यूट् करोति वा, कस्यापि ध्वनिः आयाति. अस्तु, तर्हि प्रौढप्रकाशः तेजसामान्य अभावः तमः नास्ति. कुतः इति चेत् तत्र उष्णीकृतं जलं तत्र घटे वा तत्र स्थापयित्वा तत्र चषके वा तत्र उष्णीकृतं जलं स्वीकृत्य यः द्वान्ते प्रकोष्ठे, प्रकोष्ठे अन्धकारमयः प्रकोष्ठः अस्ति, तत्र स्थापयामः चेत् तत्र तमसः प्रतीतिः भवति वा न वा? तत्र अन्धकारमयः प्रकोष्ठः अस्ति, तस्मिन् प्रकोष्ठे किं कुर्मः इत्युक्ते चषके जलम् उष्णीकृत्य तत्र नयामः, तत्र स्थापयामः. किं तेन अन्धकारस्य, तत्र अन्धकारः अपगच्छति वा?
न अपगच्छति.
परन्तु तत्र तेजः अस्ति वा न वा?
अस्ति एव.
अस्ति,
तेजः अस्ति. तर्हि इदानीं तेजः अभावः अन्धकारः इति वक्तुं शक्यते वा? तेजः अस्ति, अन्धकारोऽपि तत्रैव, तर्हि तेजः अभावः नास्ति तत्र.
सत्यं, तत्र औष्ण्यमेव अस्ति.
तर्हि तत्र आम् एवं सत्यमेव. तर्हि इदानीं किं वक्तव्यं तत्र नाम तत्र तेजसामान्य अभावः वक्तुं न शक्यते, किञ्चिदिव परिष्कारः करणीयः. तर्हि किमुक्तम् इत्युक्ते तत्र प्रकाशकतेजसामान्याभावतमः नाम तत्र विशिष्टतेज अभावः, न सामान्यतेज अभावः. यः यः तेजः प्रकाशकः तेजः भवति तादृशप्रकाशकः तेजसः अभावः एव तमः. इदानीं प्रकाशकः तेजकः दीपः, यदि दीपं तत्र नयामः चेत् दीपात् प्रकाशः आगच्छति, तर्हि प्रकाशकः तेजः तत्र भवति. तर्हि तस्य तत्र प्रकोष्ठे तन्नयामः चेत् तत्र अन्धकारः अपगच्छति, तत् पुनः निष्कासयामः चेत् तत्र तमः भवति. तर्हि तत्र प्रकाशकतेजः अभावः तमः इति वक्तुं शक्यते. तर्हि पुनः प्रौढप्रकाशकतेजः किमर्थम् उक्तम्? प्रकाशकतेज इत्येतावन्मात्र कथनेन पर्याप्तं भवेत् खलु इत्युक्ते तत्र किञ्चिदिव किं भवति इत्युक्ते तत्र प्रकाशकत्वं, प्रकाशकत्वं त्रेणुकेषु, तेजत्रेणुकेषु अपि वर्तते. कदाचित् चेत् तत्र महत्परिमाणवत्वं किमपि किमपि तत्र अस्माभिः पूर्वं परिशीलितमासीत्, कदा रूपिद्रव्यस्य प्रत्यक्षं भवति इत्युक्ते रूपं स्यात् तत्र, किमासीत् महत्परिमाणं स्यात् इत्यादिकम् आसीत्. तर्हि त्रेणुके महत्परिमाणमपि अस्ति, प्रकाशकत्वमपि अस्ति. तर्हि तत्र पुनः प्रेणुकं तत्र नयामः चेदपि अन्धकारः न अपगच्छति. तर्हि किं वक्तव्यम् इत्युक्ते प्रौढप्रकाशः, न केवलं प्रकाशकः, प्रौढप्रकाशकः, यत्र प्रकृष्टप्रकाशकत्वम् अस्ति, यदि न केवलं प्रकाशकत्वं परन्तु प्रकृष्ट अधिकप्रकाशकत्वं, यत् यस्य प्रकाशकत्वम् अस्माभिः ज्ञायते, तादृशं प्रकाशकत्वम् प्रकाशकत्वविशिष्ट तेजस अभाव, सामान्य अभाव एव तमः इति तत्र वदति. द्वेणुकेषु यद्वर्तते नाम तत्र प्रकाशः, तत् अस्माभिः न ज्ञायते. तत् स्मर्यते वा? तत् सर्वम् अस्माभिः पूर्वं पठितमासीत् विद्याधर्यां. तत्र द्वेणुके किमर्थं तत्र न भवति प्रत्यक्षं, रूपप्रत्यक्षं, रूपिद्रव्यप्रत्यक्षम् इति
सन्देहः अस्ति जि.
आम्,
तमस तादृश तेज अभावकत्वे तत्र रूपत्व रूपत्वप्रतीतिः इत्युक्ते तत्र किं?
तत्र प्रतीतिः नाम ज्ञानम्. आम्,
ज्ञानमेव.
आम्, प्रतीतिः नाम ज्ञानं. तादृशी प्रतीतिः अस्ति, परन्तु प्रतीतिः भ्रमः इति ग्रन्थकारः वदति. वस्तुतस्तु तत् तमसः न प्रतीतिः, कल्पितत्वं, मनसि एव कल्पितं तद् भ्रमः इति ग्रन्थकारः वदति. यथा आकाशे रूपं भवति वा? आकाशे रूपं वस्तुतः न भवति, परन्तु अस्माकं रूपवत् आकाशम् इति अस्माकं भ्रमात्मकं ज्ञानं भवति, परन्तु भ्रमात्मकं ज्ञानम् अस्ति इति कृत्वा आकाशे रूपं न भवति.
अग्नेः एव रूपत्वमस्ति, आकाशे सप्तवत् एव अस्ति खलु जि.
आं, सत्यं सत्यं सत्यमेव. आम् अस्ति. तर्हि तद् ग्रन्थकारः स्वयमेव साक्षात् वदति तत्र नीलं तमश्चलति इति प्रत्ययो भ्रमः इति वदति, केवलं भ्रमः. तर्हि द्वेणुकेषु वर्तमानं यत् प्रकाशकत्वं तत् अस्माभिः न ज्ञायते, तद् अस्ति तथापि न ज्ञायते, परन्तु त्रेणुकेषु यत् प्रकाशकत्वम् अस्ति तस्य तु प्रत्यक्षयोग्यत्वं वर्तते, परन्तु तत्र प्रौढत्वं नास्ति, नाम आधिक्यं नास्ति इति कृत्वा त्रेणुकेषु सत्सु अपि तत्र तमसः प्रतीति भवत्येव इति मम कथनस्य आशयः आसीत्. अस्तु, इदानीं किञ्चिदिव पुनः एकवारं पर्यायेन पश्यामः. अत्र
महोदय, एकः प्रश्नः.
आम् महोदय,
अत्र केवलं प्रतीति इति स्वीकृत्य वयं तद् नास्ति इति सिद्धान्ती दर्शितवान्, तत्र तमसः लक्षणवाक्यं न भवति खलु? तत्र केवलं प्रतीतिः एव, तदेव तस्य एव तदेव आधारः भवति तस्य निराकरणार्थं. लक्षणं वाक्यं किमपि नास्ति.
न उक्तं पूर्वं किमर्थम् एवं कृतम् इत्युक्ते पूर्वपक्षी स्वयमेव तत्र नैयायिकानां चिन्तनं किम् अस्ति इत्युक्ते प्रतीतिव्यवहाराभ्यम् अर्थसिद्धिः, प्रतीतिः अस्ति चेत् अर्थोऽपि भवेत् इति नैयायिकानां चिन्तनम्
अस्तु,
परन्तु भ्रमात्मकं तु न भवेत्, प्रतीतिः अस्ति चेत् तत्र अर्थः भवेत् इति तेषाम् आशय नास्ति. यदि प्रमा अस्ति चेत्, प्रमाज्ञानं नाम यथार्थप्रतीतिः अस्ति चेत् वस्तु भवेदेव इति नैयायिकानां चिन्तनम्
अस्तु.
अस्तु महोदय, तर्हि आन्द्रे महोदय किञ्चिदिव प्रतिपादनं करोति वा तत्र तमसो नाकाशादिपञ्चके इति आरभ्य तमसो तेजो अभावरूपत्वात् इत्यन्ति एतावत्पर्यन्तं प्रतिपादनं करोति वा?
एवं भो करोमि, परन्तु कुत्र आरभ्य इति?
तत्र नवमे पुटे अन्तिमपङ्क्तिं पश्यतु, तत्र तमसो न आकाशादिपञ्चके अन्तर्भावो रूपवत्वात् इत्यारभ्य तमसस्तेजो अभावरूपत्वात् इत्येतावत्पर्यन्तम्.
भवतु, इदानीं तत्र वर्तते खलु अस्माकं प्रतीतिः वा व्यवहारोपि वर्तते नीलं तमश्चलचि इति. इदानीम् एतत् सर्वम् अस्माभिः दृष्टं, तत्रापि गुणवत्त्वं वर्तते, क्रियावत्त्वं कर्मवत्त्वमपि वर्तते, गुण किमपि कर्म कर्मवत्त्वमपि वर्तते. अतः एव तमः भिन्नः कश्चन पदार्थः इव, भिन्न कश्चन पदार्थः एव इदानीं तथा एव स्वीक्रियते अथवा व्यवह्रियते प्रचीयते. इदानीं भवतु नाम पदार्थः, परन्तु अन्येषु केषुचित् पदार्थेषु सः अन्तर्भूतः इति चेत्, इति सिद्धान्ति वदति इति चेत्, तत्र पूर्वपाक्षी वदति पश्यतु भोः, तत्र किम् आकाशादारभ्य मनः पर्यन्तं तत्र एतेषु पञ्चसु पदार्थेषु रूपवत्त्वं नास्ति, परन्तु अस्माभिः नीलं तमः इति स्वीक्रियते प्रचीयते. अत एव तत्र एतेषु पदार्थेषु तमः कदापि न स्यात्. तत्र भवतु तत्र यत् पृथिवी अप्तेजो इत्यादिकं यत् वर्तते तत्र कुत्रापि अन्तर्भूतं स्यात् तत्र न, यतोहि स्पर्शवत्त्वं तत्र तेषु सर्वेषु स्पर्शः गुणः अस्ति, तमसि तु न. अपि च केचन अन्ये केचन तत्र व्यभिचारः सन्ति, यतोहि किं तेजसि किं तेजसि आसीत् तेजसि भास्वरवत्त्वम् आसीत् वायौ च सदागचिमत्त्वम् इत्यादिकं, ते जलेपि किञ्चित् शीतस्पर्शमेव शीतस्पर्शः तावदेव. यतोहि सिद्धं भवति तमः अन्यत् तमः प्रथमतः पदार्थः अथवा द्रव्यः तथा एव तमः द्रव्यम् एव, यतोहि गुणवत्त्वं कर्मवत्त्वम् अस्य अस्ति इति एकम्. अन्यच्च अन्ये ये अन्यानि यानि द्रव्याणि सन्ति तत्र तमसः अन्तर्भावः न सिद्ध्यति, यतोहि तत्र व्यभिचाराः केचन प्रदर्शिताः. अतः इदानीं तु ओके सिद्धान्ति तत्र पुनः आगच्छति भोः, तत्सर्वं न यत् उक्तं भवद्भिः तमसि अन्तर्भूतः इति न, परन्तु तमः तमः इति तेजो अभावः एव.
सत्यं सत्यम्.
इदानीं याः व्यविचारः प्रदर्शितरूपवत्त्वम् अत्र अस्ति तत्तु वस्तुतः भ्रामविषयः, रूपवत्त्वं तत्र किमपि नास्ति, यतोहि रूपवत्त्वं कुत्र रूपवत् अत्र ओके तत्र न्यायः इव कश्चन प्रदर्शितः रूप यत्र यत्र रूपवत्त्वं तत्र तत्र अलोकसहकृतचक्षुर्ग्राह्यत्वम् इति प्रदर्शितम्. अत्र तु विपरीतः विषयः इव भवति. इदानीं तत्र न्यायः एव प्रदर्शितः. इदानीं सद्यं यत् सद्यं तत् तत् किं तत्रूपि तत्रूपवत्त्वाभावः रूपवत्त्वाभावः सद्यः हेतुः अलोक असहकृतचक्षुर्ग्राह्यत्वम्. उदाहरणम् अलोकाभावः. इदानीं हेतुः नाम इदानीं किम् अस्माभिः प्रचीयते, किम् अस्माभिः दृश्यते, यत्र अलोकः च चक्षुर्च सहकृतौ उभौ कुत्रापि वर्तते तत्र तमो अस्माभिः कदापि न प्रचीयते, तमो कदापि न दृश्यते. अत एव असहकृतचक्षुर्ग्राह्यत्वम् अथवा अलोकसहकृतचक्षुर्ग्राह्यत्वाभावः इति वर्तते. इदानीम् अनेन हेतुना रूपवत्त्वाभावः सिध्यति यथा अलोकाभावः स्वयम् एव सः तु अलोकाभावः सः तु अलोक अलोकि अलोकसहकृतचक्षुषा कदापि न प्रचीयते.
सत्यं धन्यवादः. धन्यवादः, धन्यवादः महोदय. इदानीं तदेव तथा हि इति आरभ्य तत्र संध्या भगिनी किञ्चिदिव प्रतिपादयति वा? तथा हि तमो हि न रूपि द्रव्यम् आलोकासहकृतचक्षुर्ग्राह्यत आलोकाभाववत् इति किञ्चिदिव पुनः स्वशब्दैः वदति वा?
आम्, अत्र यः यत् पूर्वपक्षी वदति तस्य उत्तरत्वेन सिद्धान्ती वदति यथा पूर्वम् उक्तं तथैव तमः रूपिद्रव्यं नास्ति, इत्युक्ते तादृशद्रव्यं यस्मिन् रूपम् अस्ति इति. किमर्थम् इत्युक्ते रूपिद्रव्येषु आलोकसहकृत् चक्षुर्ग्राह्यत्वम् अस्ति इत्युक्ते यदा रूपिद्रव्येषु यदा प्रकाशः भवति इत्युक्ते तेषु उपरि तदा प्रकाशस्य साहाय्येन एव चक्षुः तद्द्रव्यं ग्रहीतुं शक्नोति इति. परन्तु तादृशं तमसि नास्ति, अतः तमः आलोक असहकृत् चक्षुर्ग्राह्यम् अस्ति. तमसि आलोक असहकृत् चक्षुर्ग्राह्यत्वम् अस्ति इति कृत्वा रूपीद्रव्यात् भिन्नम् अस्ति तद् इति. अत्र महोदय आलोकाभाववत् इति यत् पदमस्ति तत्र किञ्चित् इतोपि स्पष्टीकरणं मम आवश्यकम्. आलोकाभाववत् इति तत्र मतुप्रत्ययः मतुप्रत्ययान्तपदमस्ति वा तत्र तादृश्यम् इत्यस्मिन् अर्थे अस्ति वा?
आमां, तत्र आलोक अभाव आलोक अभाववत् नाम तत्र सादृश्यं.
हा, इत्युक्ते तत्रैव सिद्धान्ती कथयति तत्र तमः इत्युक्ते आलोकस्य अभावः एव तमः इति.
तत्र किञ्चित् किञ्चिदिव चिन्तनं करणीयम्. अत्र समस्या अस्ति. अत्र सिद्धान्ती सिद्धान्तिनः चिन्तनं किम् इत्युक्ते सिद्धान्तिनः चिन्तनम् अस्ति तमः आलोक अभाव एव. यदि सिद्धान्तिनः चिन्तनं तमः आलोक अभाव एव इति भवति चेत् पुनः आलोक अभावमेव दृष्टान्तरूपेण किमर्थं स्थापयति इति प्रश्नः उदेति. तमः एव आलोक अभावः, इदानीं तमः एव तत्र तमसि एव साध्यं वर्तते, तथैव हेतुः अपि तदेव, साध्यमपि तदेव. तमः नाम तत्र आलोक अभावः इति सिद्धान्तिनः चिन्तनं, पुनः आलोक अभावः दृष्टान्तरूपेण एव किमर्थं सिद्धान्ति स्वीकरोति. इदानीं सिद्धान्ति किं वदति इत्युक्ते आलोक अभावहीनरूपी द्रव्यम् आलोकासहकृतचक्षुर्ग्राह्यत्वात् आलोक अभाववत्. यदि सिद्धान्तिनः चिन्तनं किं तमः आलोक अभावः, तर्हि अत्र तमः इति यत् पदमस्ति तस्मिन् स्थले आलोक अभावः पदं स्थापयामः कुतः इति चेत् सिद्धान्तिनः तदेव सिद्धान्तः, तमः आलोक अभावः. तर्हि इदानीं किञ्चिदिव विपरिणामं कुर्मः. तमः इति पदस्य स्थाने आलोक अभावं तत्र स्थापयामः, तर्हि वाक्यं किं भवति इत्युक्ते आलोकाभावहीनरूपी द्रव्यम् आलोकासहकृतचक्षुर्ग्राह्यत्वात् आलोक अभावः. इदानीं दृष्टान्त यः अस्ति तदेव, तर्हि पक्षः साध्यं कथम् इति प्रश्नः उदेति. सिद्धान्ति एवं किमर्थं करोति इत्युक्ते सिद्धान्ति तु आलोक अभावः इति चिन्तनं करोति, परन्तु यः पूर्वपक्षी अस्ति सः न स्वीकरोति, तमः आलोकः अभावः इति न स्वीकरोति इति कृत्वा इदानीं सिद्धान्ति आलोक अभावं दृष्टान्तरूपेण स्वीकर्तुं शक्नोति. तर्हि पूर्वपक्षिणः सिद्धान्तम् अभ्युपगमसिद्धान्तः इति वदन्ति खलु, तस्य पूर्वपक्षिणः यत् चिन्तनम् अस्ति तत् अभ्युपगत्य तत् स्वीकृत्य एव अत्र वादः प्रचलति. परन्तु तत्र भवत्याः प्रश्नः किञ्चिदिव तत्र आलोक अभाववत् इत्युक्ते सादृश्यमेव तदेव. इदानीं पुनः किञ्चिदिव तस्मात् प्रौढप्रकाशकतेज सामान्य अभावस्तमः. निरञ्जन महोदय अत्र किञ्चिदिव प्रतिपादनं करोति वा?
प्रयत्नं करोमि महोदय. तत्र इदानीं दृष्टवन्तः तत् आलोक अभाववत् तदेव अभावः तदेव तमसः इति, किन्तु तत्र किञ्चित् इतोपि वक्तव्यम् अस्ति. तद् केवलं तेजसः सामान्य अभावः तमः इति नास्ति. यदि द्वाय्यणुकः इति तद् अथवा उष्णः इति तस्य उष्णस्य आनयनेन तमसः अभावः तत् तु तमसः न अपगच्छति इति कृत्वा केवलं सामान्यतेजसः अभावः इति न वक्तुं शक्नुमः. प्रकाशकः तेजसः अभावः अपि न वक्तुं शक्नुमः. किमर्थम् इत्युक्ते तत्र द्वायणुके प्रकाशकः तेजः तु अस्ति, किन्तु तद् क्षम्यतां, हा त्रयणुके यत् अस्ति तत् तस्य आनयनेन अपि तमसः न अपगच्छति इति कृत्वा प्रौढप्रकाशकतेजस यत्र अधिकतेजसः अस्ति तस्य अधिकतेजसः अभावः एव तमः इति तत्र दत्तमस्ति.
सत्यं सत्यमेव. धन्यवादः. अस्तु, इदानीम् अग्रे सरामः.
इत्युक्ते महोदय
अत्र इदानीं
निरञ्जन महोदय वदतु महोदय.
महोदय अत्र तमसः तमसी क्रिया भवति इति कृत्वा तत्तु विभुद्रव्यं न भवति, अतः आकाशः इत्यादिकं नास्ति इति तदपि
तत्र आकाशादिपञ्चकेन अन्तर्भावः कुतः इति चेत् तत्र रूपम् अस्ति इति.
आमामां तदेव स्वीकृतमस्ति, किन्तु क्रिया तदपि स्वीकृत्य वयं
तदपि भ्रमः. सत्यं, क्रिया
भ्रमः किन्तु किन्तु प्रतिपक्षी स्वीकरोति इति कृत्वा तदपि स्वीकृत्य साधितुं शक्नुमः.
सत्यमेव.
प्रश्नः अस्ति, नैयायिकानां मतानुसारम् अनेन तर्केण किम् आगतम् इति चेत् तमः तु एकविध अभावः इति, अन्यो अत्यन्त अभावः एव.
सत्यं सत्यं, सम्यक्, बहु सम्यक् अस्ति. अस्तु, अग्रे सरामः. इदानीं किं वदति इत्युक्ते द्रव्यत्वजातिमत्वं गुणवत्वं वा द्रव्यसामान्यलक्षणम् इति वदति. इदानीं द्रव्यस्य अत्र विभागः कृतः, नवद्रव्याणि इति उक्तानि, परन्तु तत्र द्रव्यसामान्यलक्षणं न उक्तमासीत्. तर्हि इदानीं द्रव्यसामान्यलक्षणं वदति, द्रव्यत्वजातिमत्वं गुणवत्त्वं वा द्रव्यसामान्यलक्षणम्. इदानीं लक्षैकदेशावृत्तित्वं अव्याप्तिः यथा गोः कपिलत्वम् इति वदति इति दृश्यते खलु तत्र पुस्तके, तत्र तत्र एकादशे पुटे
दृश्यते महोदय.
अस्तु, तर्हि इदानीं किं वदति इत्युक्ते द्रव्यत्वजातिमत्वं गुणवत्त्वं वा द्रव्यसामान्यलक्षणं. द्रव्यत्वजातिमत्वं गुणवत्त्वं, गुणवत्त्वम् इति कथन तस्य को वा अर्थः, गुणवत्त्वम् इत्यस्य को वा अर्थः इत्युक्ते गुणवत्त्वं नाम गुण एव, गुणः एव द्रव्यस्य सामान्यलक्षणं, गुणवत्त्वं नाम गुणः एव, द्रव्यत्वजातिमत्त्वं नाम द्रव्यत्वजातिरेव। कुतः इति चेत् तत्र नैयायिकानां किं चिन्तनं वर्तते इत्युक्ते, नैयायिकाः वदन्ति तद्वत्त्वं तदेव, तद्वत्त्वं तदेव, गुणवत्त्वं गुण एव। तर्हि तद् तद्वत्त्वं तदेव इति तत्र व्याकरणदृष्ट्यापि तदेव आगच्छति। व्याकरणदृष्ट्या यदि तस्य भावस्त्वतलौ इति प्रत्ययस्य अर्थपुरस्सरं वयं चिन्तनं कुर्मः चेदपि तदेव आगच्छति। कुतः इति चेत् तत्र गुणवत् इति प्रातिपदिकं प्रकृतिपदं, ततः त्वप्रत्ययस्य विधानं, तर्हि गुणवत्त्वं गुणवत् इति पद तत्र प्रकृतिपदात् त्वप्रत्ययस्य संयोजनेन गुणवत्त्वम् इति पदस्य निष्पत्तिः। तर्हि एतत् अस्ति भावप्रत्ययः, त्वप्रत्ययः भावप्रत्ययः। तर्हि भावप्रत्ययस्य को वा अर्थः इत्युक्ते, अस्माभिः पूर्वम् उक्तमासीत् तत्र प्रकृतिजन्यबोधे प्रकारो भावः इति उक्तमासीत्। तर्हि गुणवत् इति प्रकृति, गुणवत् इति प्रकृति शब्दपदस्य कथनात् कीदृशं ज्ञानं जायते? गुणवत् नाम कोऽपि द्रव्यं, तर्हि गुणः तत्र प्रकारीभूतो धर्मः खलु। तत् तस्मिन् ज्ञाने गुणवत् इति पदस्य कथनेन यद् ज्ञानं जायते तत्र गुणे किं भवति? प्रकारताख्यविषयता गुणे भवति, गुणवती भवति विशेष्यताख्यविषयता, समवायसम्बन्धे भवति संसर्गताख्यविषयता। तर्हि तस्मिन् ज्ञाने गुणवत् इति पदस्य कथनजन्यज्ञाने प्रकारः गुणः, तर्हि प्रकारीभूतो धर्मः गुणः, अतः प्रकृतिजन्यबोधे प्रकारो भावः इति कथनादेव गुणवत्त्वं नाम गुण एव इति आयाति। अस्तु, अस्माभिः पूर्वमपि उक्तमासीत्, केवलं तत्र वारं वारं कथनेन किं भवति इत्युक्ते मनसि तिष्ठति इति कृत्वा एव वदामि। तर्हि द्रव्यसामान्यलक्षणम् इदानीं द्रव्यसामान्यलक्षणम् उक्तं, पुनः लक्ष्यैकदेशदृक्षित्वम् अव्याप्तीयता गोः कपिलत्वं तत्र किञ्चिदिव असङ्गतम् इव भाति खलु। इदानीं द्रव्यसामान्यलक्षणम् उक्तं, तत् तदनन्तरमेव इदानीं लक्षणस्य किमर्थं द्रव्यसामान्यलक्षणं गुणवत्त्वम् इत्यादिकं वक्तव्यमासीत्। किमर्थं लक्ष्यैकदेशावृत्तित्वम् अव्याप्तिः यथा गोः कपिलत्वं किमर्थम् असङ्गतमिव भाति ग्रन्थकारः, किमर्थम् एवं प्रलापं करोति इति मनसि कदाचित् उदेति। यथा गोः कपिलत्वम् अलक्ष्यवृत्तित्वम् अतिव्याप्तिः, यथा गोः श्रृङ्गित्वं लक्ष्यमात्र अवर्तमानः असम्भवः, यथा गोः एकसफवत्वं। किमर्थम् एतद् वदति इत्युक्ते, तत्र यदा द्रव्यत्वजातिमत्त्वं गुणवत्त्वं वा द्रव्यसामान्यलक्षणं यदा उक्तं, तदा मनसि एतावत्पर्यन्तं ग्रन्थे लक्षणं नाम किम् इति न निरूपितम्। अस्मिन् ग्रन्थे एतावत्पर्यन्तं लक्षणं नाम किम् इति न निरूपितम्। इदानीम् ऐदं प्राथम्येन लक्षणम् इति पदस्य प्रयोगः जातः। तर्हि अस्माकं मनसि जिज्ञासा उदेति, किं नाम लक्षणम् इदानीं वदतु? द्रव्यसामान्यलक्षणं भवतु, पूर्वं तु लक्षणम् इति किं वक्तव्यं खलु इति प्रश्नः उदेति। तर्हि अस्माकं जिज्ञासा शान्तये ग्रन्थकारः इदानीं लक्षणस्य स्वरूपकथनार्थं प्रवृत्तो भवति। लक्षणस्वरूपं कीदृशं नाम लक्षणस्य लक्षणं कीदृशम् इति वक्तुं ग्रन्थकारः इदानीम् एतस्य आरम्भं करोति। इदानीं लक्षणस्य अनन्तरं किम् उक्तम् इत्युक्ते, एतत् दूषणत्रयरहितो धर्मो लक्षणम् इति उक्तम्। दूषणत्रयरहितो धर्मः लक्षणम् इति, दूषणत्रयरहितः नाम अव्याप्तिः, अतिव्याप्तिः, असम्भवः, त्रयः दोषाः। एते त्रयः दोषाः यत्र न सन्ति तादृशः धर्मः लक्षणम्, नाम दूषणत्रयरहितः यः धर्मः सः धर्मः लक्षणम्। तर्हि दूषणत्रयराहित्यं नाम दूषणत्रय अभावः, दूषणत्रयाणाम् अभावज्ञानं कदा जायते? अभावज्ञानम् अभावप्रतियोगीज्ञानाधीनं, यावत्पर्यन्तं प्रतियोगीज्ञानं न जायते तावत्पर्यन्तम् अभावज्ञानं न जायते. अत्र अभावत्रयाः सन्ति, तेषां प्रतियोगिनां ज्ञानम् आवश्यकम् इति कृत्वा पूर्वं प्रतियोगिनां निरूपणं कर्तुं ग्रन्थकारस्य इदानीं प्रयत्नः. अतः एव इदानीं लक्षैकदेशावृत्तित्वम् अव्याप्तिः इति निरूपणं करोति. कुतः इति चेत् प्रतियोगिज्ञानाधीनमेव अभावज्ञानं, प्रतियोगिज्ञानं न भवति चेत् अभावज्ञानं न भवति. अतः त्रयः प्रतियोगिनः ये सन्ति तेषां निरूपणम् इदानीं करोति. तर्हि लक्ष्यैकदेशावृत्तित्वम् एतत् अस्माभिः विद्याधरीग्रन्थे अपि दृष्टं, पठितमेव.
इदानीं महोदय क्षम्यताम्, अत्र एकः प्रश्नः, तत्र पूर्वस्मिन् वाक्ये द्रव्यत्वजातिमत्वं गुणवत्त्वं वा द्रव्यसामान्यलक्षणम् इति अस्ति खलु, तत्र किमर्थं द्रव्यत्वजातिमत्वम् इति उक्तम्? यतोहि तत्र जातिः तु तत्र सर्वेषु पदार्थेषु तथा भवति एव खलु, इत्युक्ते गुणे अपि गुणत्वजातिः इति अस्ति, तर्हि सः तत् किमर्थं लक्षणम् इति.
सत्यं, प्रश्नः समीचीनः. नाम जातिमत्वं न, तत्र द्रव्यत्वजातिमत्वम् इति अस्ति, द्रव्यत्वाख्यजातिः अत्र अस्ति, सः अर्थः. तर्हि द्रव्यत्वजाति तु गुणे न भवति खलु.
सत्यम्, इत्युक्ते तेन इत्युक्ते पृथ्व्यां पृथ्वीत्वजातिः इति अस्ति एव, परन्तु लक्षणवाक्यं तु गन्धवती इति गुणेन एव वदामः खलु, तर्हि
सत्यं समीचीनं. तत्र किमस्ति इत्युक्ते तत्र विशेषलक्षणम् अस्ति भगिनि, पृथिवी विशेषद्रव्यम्. इदानीं विशेषद्रव्यस्य लक्षणं न करोति, इदानीं द्रव्यस्य सामान्य सर्वेषां द्रव्याणां कः लक्षणम् इति वदति. गन्धवत्वं पृथिव्यः, तत्र पृथिवी तु विशेषद्रव्यं खलु, तर्हि विशेषद्रव्यस्य लक्षणं तत्र गन्धवत्वं कृतम्. अत्र तु सर्वेषां द्रव्याणां किं लक्षणं, सामान्यलक्षणं किम् इति वदति इदानीम्.
अस्तु महोदय,
समीचीनः प्रश्नः. अस्तु, लक्षैकदेशावृत्तित्वम् अव्याप्तिः इदानीम्.
क्षम्यतां महोदय, अन्यः प्रश्नः. इदानीं नैयायिकानां मतानुसारम् अभावः चक्षुर्ग्राह्यः वा?
सत्यं, न तथा नास्ति. चक्षुर्ग्राह्यः केवलं न वक्तव्यं, किमस्ति इत्युक्ते यो गुणः अथवा यः पदार्थः येन इन्द्रियेण ग्राह्यः अथवा गृह्यते, तद्गतजातिः तदभावश्च तेनैव इन्द्रियेण गृह्यते इति नैयायिकानां चिन्ता. तर्हि इदानीं चाक्षुषद्रव्यमस्ति चेत् चाक्षुष नाम तत्र रूपीद्रव्यमस्ति, चाक्षुषप्रत्यक्षं तस्य द्रव्यस्य भवति चेत् तत्र चक्षुरिन्द्रियेण एव तस्य अभावः गृह्यते. इदानीं शब्दः अस्ति, श्रोत्रेन्द्रियेण गृह्यते खलु, तस्य अभावपि श्रोत्रेन्द्रियेण एव गृह्यते. एवम्,
ओ अस्तु, अस्तु महोदय, अवगतम्, अवगतं, धन्यवादः.
तर्हि इदानीं किमस्ति इत्युक्ते लक्षैकदेशावृत्तित्वम् अव्याप्तिः. तर्हि अस्माभिः एतत् पूर्वं विद्याधर्यामपि दृष्टम्, इदानीं किञ्चिदिव परिष्कृतकारः करणीयः, किञ्चिदिव यथा नैयायिकदृष्ट्या अव्याप्ति नाम कथं नैयायिकाः अव्याप्तेः निरूपणं कुर्वन्ति इति अस्माभिः द्रष्टव्यम् इदानीं किञ्चित्. तत्र किं वदन्ति ते इत्युक्ते, लक्ष्यतावच्छेदकसमानाधिकरण अत्यन्त अभावप्रतियोगित्वम् एव अतिव्याप्ति अव्याप्तिः, लक्षैकदेशावृत्तित्वम् अव्याप्तिः इति अत्र उक्तं सामान्यरूपेण, यथा गोः कपिलत्वम्. परन्तु इदानीं वयं किं कुर्मः इत्युक्ते, किञ्चिदिव तत्र नैयायिकधिया, नैयायिका इदानीं वयं नैयायिकाः, तर्हि नैयायिकधिया अव्याप्तेः स्वरूपं कीदृशं भवति इत्युक्ते, लक्ष्यतावच्छेदकसमानाधिकरण अत्यन्त अभावप्रतियोगित्वम्. अस्तु, तर्हि इदानीं गोः कपिलत्वम् इति उक्तम्. तर्हि गोः कपिलत्वम् इत्युक्ते तत्र लक्षणस्य कथं समन्वयः भवति इति चिन्तनं करणीयम्. तर्हि अत्र लक्ष्या गौः, एकवारम् अहं वदामि, तर्हि पुनः पर्यायः पश्यामि. लक्ष्यागौः पुनः अत्र लक्ष्यतावच्छेदकसमानाधिकरण अत्यन्त वा लक्ष्यतावच्छेदकः इति पदस्य एतावत्पर्यन्तं निरूपणं न कृतं किं नाम लक्ष्यतावच्छेदकम् इति न उक्तं तर्हि लक्ष्यतावच्छेदकं नाम तत्र लक्ष्यवाचकपदात् यद्विशिष्टं प्रतीयते तदेव लक्ष्यतावच्छेदकं लक्ष्यवाचकपदात् यद्विशिष्टं प्रतीयते तदेव तदेव लक्ष्यतावच्छेदकम् इदानीम् उदाहरणं गौः इति वदामः गौः तर्हि गौः इति लक्ष्यवाचकपदं गौः हे गोः निरूपणं करोतु इति लक्ष्यं लक्ष्यागौः तर्हि गौः इति लक्ष्यवाचकपदं तर्हि लक्ष्यवाचकपदस्य कथनेन कीदृशं ज्ञानं जायते इत्युक्ते गोत्वविशिष्टं विशिष्टपिण्डज्ञानं गोत्वविशिष्टगोव्यक्तिज्ञानं जायते तर्हि यद्विशिष्टं प्रतीयते तदेव लक्ष्यतावच्छेदकं यत्तदोर्नित्यसम्बन्धः यद्विशिष्टं गोत्वविशिष्टं प्रतीयते तद् लक्ष्यतावच्छेदकं यत् गोत्वं तद् पुनः यत्तदोर्नित्यसम्बन्धः तत्पदेन गोत्वस्य एव परामर्शः तर्हि यद्विशिष्टं वस्तु प्रतीयते तदेव लक्ष्यतावच्छेदकं तर्हि गो इति पद कथनेन गोत्वविशिष्टं प्रतीयते इति कृत्वा गोत्वमेव लक्ष्यतावच्छेदकम् अस्तु तर्हि लक्ष्यागौः इदानीं किम् उक्तमासीत् लक्ष्यतावच्छेदकसमानाधिकरण अत्यन्ताभावप्रतियोगित्वं लक्ष्यतावच्छेदकसमानाधिकरण अत्यन्ताभावप्रतियोगित्वम् इदानीं गोः तर्हि कपिलत्वम् इति लक्षणम् उक्तं गोः कपिलत्वम् इति लक्षणम् उक्तं तर्हि अत्र अव्याप्तः अस्ति एतत् एषः गुणः एषः धर्मः तर्हि अतिव्याप्तिदोषः ग्रस्तः अस्ति लक्षणं भवितुं नार्हति परन्तु तत्र अतिव्याप्तिदोषस्य यत् स्वरूपमस्ति तत्र अस्य कपिलत्वस्य कथं समन्वयः भवति इति द्रष्टव्यम् नाम तत्र लक्ष्यतावच्छेदकसमानाधिकरण अत्यन्ताभावप्रतियोगित्वं कपिलत्वे भवेत् कपिलत्वे तादृशदोषः भवेत् तादृश अतिव्याप्तिदोषः अस्ति इति कथनस्य कः आशय इत्युक्ते लक्ष्यतावच्छेदकसमानाधिकरण अत्यन्ताभावप्रतियोगित्वं कपिलत्वे अस्ति इति अर्थः तर्हि अस्ति वा न वा अस्ति इति प्रदर्शनीयं लक्ष्यतावच्छेदकसमानाधिकरण अत्यन्ताभावप्रतियोगित्वं कपिलत्वे अस्ति इति अस्माभिः प्रदर्शनीयम् इदानीं पश्यामः कथम् इति तर्हि लक्ष्यागौः तर्हि इदानीं लक्ष्यतावच्छेदकं गोत्वम् इदानीं तत्र लक्ष्यतावच्छेदक अधिकरण नाम गोत्व अधिकरण श्वेतगौः स्वीकुर्मः श्वेतगां स्वीकुर्मः तर्हि लक्ष्यतावच्छेदकसमानाधिकरण अत्यन्त अभावप्रतियोगित्वम् इदानीं कपिलत्वम् उक्तं खलु तर्हि कपिलत्वे अभावप्रतियोगित्वम् अस्ति वा न वा अभावप्रतियोगित्वम् अस्ति वा न वा अस्ति एव कथम् इत्युक्ते कपिलागौः अस्ति भवतु नाम तत् समीचीनमेव परन्तु इदानीं श्वेतगां पश्यामः श्वेतगवि किम् अस्ति श्वेतगवि लक्ष्यतावच्छेदकं गोत्वम् अस्ति वा न वा अस्ति एव श्वेतगवि लक्ष्यतावच्छेदकम् अस्ति तर्हि श्वेतगौः लक्ष्यतावच्छेदक अधिकरणं लक्ष्यतावच्छेदकं नाम गोत्वमत्र तस्य लक्ष्यतावच्छेदकस्य अधिकरणं श्वेतगौः तस्मिन् अधिकरणे विद्यमानः यः अत्यन्ताभावः श्वेतरूप अभावः नास्ति परन्तु कपिलत्व अभावः कपिलरूप अभावः श्वेतगवि किम् अस्ति कपिलरूप नाम कपिलत्व अभावः आम्
सूचनत्रयं तत्र किम् अस्ति जि
पुनः एकवारं पृच्छतु भगिनि
दूषणत्रयं तत्र किम् अस्ति जि
तत्र दूषणत्रयं नाम तत्र अव्याप्तिः अतिव्याप्तिः असम्भवदोषः इति दोषत्रयम् एवं तद् अनन्तरम् आगच्छति अस्माभिः तत्र वयं पश्यामः अनन्तरम् इदानीं प्रथमस्य अव्याप्तिदोषस्य इदानीं निरूपणम् अस्ति. अव्याप्तिदोषस्य स्वरूपं कीदृशम् इत्युक्ते लक्ष्यतावच्छेदकसमानाधिकरण अत्यन्त अभावप्रतियोगित्वम् इति अव्याप्तिदोषस्य स्वरूपं. तर्हि कपिलत्वं गोः लक्षणं यदा वदामः, यान कपिलरूपं गोः लक्षणं वदामः चेत् एषः धर्मः अव्याप्तिदोषः ग्रस्तः धर्मः इति कथनार्थम् अस्माभिः लक्ष्यतावच्छेदकसमानाधिकरण अत्यन्त अभावप्रतियोगित्वं कपिलरूपे वर्तते, कपिलत्वे वर्तते इति प्रदर्शनीयं भवति. प्रदर्शनप्रकारः एव अस्माभिः इदानीं तत्र पश्यामः, तदेव पश्यामः. लक्ष्यागौः तद्वयं जानीमः एव. तर्हि कपिलत्वम् इति उक्तम्, इदानीं वयं श्वेतगां स्वीकुर्मः. श्वेतगवी लक्ष्यतावच्छेदकं गोत्वं वर्तते एव, तर्हि श्वेतागौः लक्ष्यतावच्छेदकगोत्वस्य अधिकरणं भवत्येव. तस्मिन् अधिकरणे वर्तमानः यः अत्यन्त अभावः कपिलत्वस्य अभावः. श्वेतगवी कपिलत्वं वर्तते वा? न वर्तते एव. तर्हि श्वेतगवी कपिलरूपस्य अभावः अथवा कपिलत्वस्य अभावः. तर्हि अभावस्य प्रतियोगी कपिलरूपम्, अभावस्य प्रतियोगी तत्र कपिलत्वं. तर्हि कपिलत्वे अथवा कपिलरूपे अभावप्रतियोगित्वं वर्तते इति कृत्वा अव्याप्तिदोषग्रस्तः ग्रस्तम् इदं लक्षणम्. एषः दुष्ट, एतत् दुष्टं लक्षणम्. पुनः एकवारं लक्ष्यतावच्छेद तत्र अव्याप्तिदोषस्य लक्षणं किम् इत्युक्ते लक्ष्यतावच्छेदकसमानाधिकरण अत्यन्ताभावप्रतियोगित्वं. तर्हि कोऽपि वदति भोः कपिलत्वं गोः लक्षणम् अथवा कपिलरूपं गोः लक्षणम् इति कोऽपि वदति चेत् वयं किं वदामः इत्युक्ते भोः तादृशं लक्षणं न युज्यते. किमर्थं न युज्यते इत्युक्ते एतत् लक्षणम् अव्याप्तिदोषदुष्टम्, अव्याप्तिदोषग्रस्तम् एतत् लक्षणम्. पूर्वपक्षी पुनः पृच्छति कथं भोः इदानीं तत्र दर्शयतु, प्रदर्शयतु. प्रथमं तावत् वदतु अतिव्याप्तिदोषस्य लक्षणं प्रथमं वदतु, तदनन्तरं कथं तस्य लक्षणस्य समन्वयः कपिलत्वे भवति इति पुनः दर्शयतु. तादृश तदनन्तरं मम विश्वासः जायते एतत् सत्यमेव कपिलत्वे अतिव्याप्ति अव्याप्तिदोषः अस्ति इति. तर्हि समन्वयः प्रकारः कीदृशः इत्युक्ते लक्ष्यागौः तदेकदेशश्वेतगौः तस्मिन् तस्यां श्वेतगवी लक्ष्यतावच्छेदक वर्तते एव. अन्यच्च श्वेतगौः लक्ष्यतावच्छेदकस्य अधिकरणं तस्मिन्नेव अधिकरणे, समानाधिकरणम् उक्तं खलु, लक्ष्यतावच्छेदकसमानाधिकरणम् उक्तं लक्ष्यतावच्छेदकगोत्व अधिकरण भूतः एव तत्र श्वेतगौः. तस्यां श्वेतगवी वर्तमानः अत्यन्त अभावः श्वेतरूपस्य अभावो न भवति, परन्तु कपिलत्वस्य अभावः, कपिलरूपस्य अभावः श्वेतगवी वर्तते. श्वेतगवी लक्ष्यतावच्छेदकगोत्वमपि वर्तते. तर्हि लक्ष्यतावच्छेदकस्य गोत्वस्य यः यत् अधिकरणं तस्मिन् अधिकरणे एव वर्तमानः यः कपिलत्वरूप अभावः तस्य अभावस्य प्रतियोगी यत् कपिलरूपम् अथवा कपिलत्वं तस्मिन् तादृश अत्यन्त अभावस्य प्रतियोगित्वं वर्तते इति कृत्वा लक्ष्यतावच्छेदकसमानाधिकरण अत्यन्त अभावप्रतियोगित्वं कपिलत्वे अस्ति इति कृत्वा एतत् लक्षणम् अव्याप्तिदोषदुष्टम् इति आगतम्. इदानीं अत्र कः वदति, इदानीं अखिला भगिनी वदति वा, अत्र कपिलत्वं गोः लक्षणम् इति वदामः चेत् तत्र अव्याप्तिदोषदुष्टं कथं भवति तत्र लक्ष्यैकदेशवृत्तित्वम् इति उक्तं तत् इदानीं वयं त्यजामः, तत् न पश्यामः, तद् वयं विद्याधर्यामेव पठितवन्तः. इदानीं लक्ष्यतावच्छेदकसमानाधिकरण अत्यन्ताभावप्रतियोगित्वं यत् अव्याप्तेः लक्षणमस्ति, तत् लक्षणं स्वीकृत्य अत्र समन्वयं करोति वा तत्र कपिलत्वे?
करोमि महोदय, करिष्यामि. तर्हि अव्याप्तिः इत्युक्ते लक्ष्यतावच्छेदकसमानाधिकरण अत्यन्त अभावप्रतियोगित्वम् इति अस्ति चेत् तत्र इदानीम् अस्माकं लक्ष्या अस्ति गौः इति. तत्र लक्ष्यता अवच्छेदकत्वम् अस्ति गोत्वम् इति. इत्युक्ते लक्ष्ये यः विशिष्टधर्मः अस्ति तदेव यद्विशिष्टं प्रतीयते तदेव लक्ष्यतावच्छेदकत्वं. तर्हि गवीगोत्वं प्रतीयते तर्हि तदेव लक्ष्यता अवच्छेदकत्वम्. इदानीं तत्र लक्षणं कपिलत्वम् इति स्वीकुर्मः चेत् तत्र इदानीं श्वेतगां स्वीकुर्मः. श्वेतगवी कपिलत्वं नास्ति. इदानीं श्वेत गौः अपि लक्ष्या इति कृत्वा तस्यामपि लक्ष्यता अवच्छेदक समानाधिकरणत्वं तु अस्ति, परन्तु कपिलत्वं नास्ति इति कृत्वा श्वेतगवी कपिलत्व अभावः अस्ति इति कृत्वा इदानीं कपिलत्वम् इति अभावस्य प्रतियोगिः अस्ति. तर्हि कपिलत्वे लक्ष्यता अवच्छेदकसमानाधिकरण अत्यन्ताभावप्रतियोगित्वम् आगच्छति इति कृत्वा अव्याप्तिदोषः भवति कपिलत्वम् इति लक्षणवाक्यं स्वीकुर्मः चेत्.
सत्यमेव. अत्र लक्ष्यतावच्छेदकसमानाधिकरण अत्यन्ताभावप्रतियोगित्वं यदुक्तम् अत्र किञ्चिदिव तत्र स्पष्टार्थं समानाधिकरण इति पदं यदस्ति तत्र विशेषणम् अस्ति. कुत्र विशेषणम् इत्युक्ते अत्यन्त अभावे विशेषणम्. कीदृशः अत्यन्त अभावः इत्युक्ते लक्ष्यतावच्छेदकसमानाधिकरण अत्यन्त अभावः. तर्हि लक्ष्यतावच्छेदकसमानाधिकरण इति विशेषणम्, अत्यन्त अभाव इति विशेष्यम् अत्र. तादृश अभावस्य प्रतियोगित्वम् इति किञ्चिदिव स्पष्टार्थं तत् वदामि. इदानीम् अन्य कोऽपि वदति वा तत्र? इदानीं रत्ना भगिनी वदति वा अत्र पुनः एकवारम् एतदेव लक्ष्यतावच्छेदकसमानाधिकरण अत्यन्त अभावप्रतियोगित्वम् अव्याप्तेः यत् लक्षणं तस्य समन्वयः कपिलत्वे कथं भवति इति पुनः एकवारं वदति वा?
अस्तु महोदय, प्रयत्नं करोमि. इदानीं लक्ष्या गो अस्माकं लक्ष्या अस्ति गोः. गवी इदानीं स्वीकृतमस्ति कपिलत्वम् अस्ति इति, अपि च वयं जानीमः गोत्वमपि अस्ति इति. यदि कपिलत्वं लक्ष्यं भवति चेत् सर्वेषु गोषु कपिलत्वं भवेत्,
लक्षणं भवति चेत्. सत्यं, लक्षणं भवति.
हा हा, लक्षणं कपिलत्वम् इति स्वीकुर्मः चेत् सर्वेषु गोषु कपिलत्वं भवेत्. किन्तु वयं जानीमः यदि श्वेत गौः अस्ति चेत् कुत्रापि तत्र कपिलत्वं नास्ति. अतः किं भवति इत्युक्ते लक्ष्यता अवच्छेदकसमानाधिकरण अत्यन्त अभावः इत्युक्ते श्वेतगौः कपिलत्वाभावः वर्तते.
तत्र अधिकरणं, तत्र अधिकरणं लक्ष्यतावच्छेदकस्य अत्यन्ताभावस्य अधिकरणं किं तत्र?
लक्ष्यतावच्छेदक अत्यन्ताभावस्य
द्वयोः एकमेव अधिकरणं लक्ष्यतावच्छेदकस्यापि तदेव अधिकरणम्, अत्यन्त अभावस्य समान अधिकरणम् इति द्वयोः एकमेव अधिकरणं. तर्हि तत् किम् अत्र?
अभावस्य गौः एव भवति.
श्वेतगौः एव लक्ष्यतावच्छेदकस्यापि अधिकरणम्, अत्यन्त अभावस्यापि अधिकरणं, समानम् अधिकरणं द्वयोः. अतः तादृश अत्यन्त अभावः लक्ष्यता अवच्छेदकसमानाधिकरणं. सत्यमेव. पुनः इतोपि
अतः किन्तु गोत्वम् उभयत्र वर्तते, कपिलगोः अपि गवि अपि वर्तते, अपि च श्वेतगवि अपि गोत्वं वर्तते. अतः गोत्वं लक्ष्यम् इति स्वीकर्तुं शक्नुमः. गौः लक्ष्यम् इति
गौः लक्ष्यं इदानीं गौः लक्ष्यं, परन्तु केन लक्ष्यते, नाम लक्षणं किम् इत्युक्ते इदानीं कोऽपि वदति गोः गोः लक्षणम् अस्ति श्वेतरूपवत्वं, नाम कपिलरूपवत्वम् अथवा कपिलत्वम् एव गोः लक्षणम् इति कोऽपि वदति. लक्ष्यागौः नाम सकलगौः लक्ष्या लक्ष्यं सकलगौः तत्र लक्ष्यं. तर्हि सकल तत्र तत्र गवां तत्र तत्र लक्षणं किम् इत्युक्ते कोऽपि वदति कपिलत्वं कपिलरूपवत्वं. तर्हि तथा कथमी न वयं चिन्तयामः भोः न तथा नास्ति. कुतः इति चेत् तेन धर्मेण कपिलत्वेन तत्र सर्वासामपि गवां तत्र सङ्ग्रहणं न शक्यं, सङ्ग्रहः न भवति, तत्र अव्याप्तिदोषग्रस्तः अस्ति एषः धर्मः. एतत् लक्षणम् इदानीं तत्र कथं तत् सङ्ग तत्र तत् अस्माकं लक्षणं यदस्ति लक्षतावच्छेदकसमानाधिकरण अत्यन्त अभावप्रतियोगितं तत्र कथं सङ्गमनीयं, समन्वयः कथं भवति इत्युक्ते लक्ष्यागौः तदेकदेशः श्वेतगौः. श्वेतगवि लक्षतावच्छेदक छेदकं गोत्वं वर्तते. श्वेतगवि श्वेतगवि नाम तद् लक्ष्यतावच्छेदक अधिकरणं श्वेतगौः. तस्मिन् श्वेतगवि लक्ष्यतावच्छेदकं वर्तते. तस्मिन् श्वेतगवि पुनः कपिलरूप अभावः अपि वर्तते. तर्हि गोत्वस्य कपिलरूप अभावस्य समानम् अधिकरणं श्वेतगौः. तर्हि समानाधिकरण अत्यन्त अभावः कपिलरूप अभावः, तादृश अत्यन्त अभावस्य प्रतियोगी कपिलरूपम् अथवा कपिलत्वं, तादृश अत्यन्त अभावप्रतियोगित्वं कपिलरूपे अथवा कपिल कपिलत्वे, अतः तत् लक्षणम् अव्याप्तिदोषदुष्टम् इति. सत्यमेव, सम्यक् सम्यक् एव अस्ति. अस्तु, इदानीम् अस्माकं समयोऽपि जातः. अग्रिमे सप्ताहे सप्ताहे मिलामः, अनेन विरमामः. नमस्कारः, धन्यवादाः.
नमस्कारः, धन्यवादः महोदय.